सर्वेभ्यो नमः, स्वागतं। वयं प्रार्थनां वदामः। चित्रा भगिनी,
ॐ सहनाभवतु, सहनौ भुनक्तु, सह वीर्यं कर्वावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनाभवतु, सहनौ भुनक्तु, सह वीर्यं कर्वावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनाभवतु, सहनौ भुनक्तु, सह वीर्यं कर्वावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः। हरिः ॐ।
भगिनी न श्रूयते।
इदानीं श्रूयते वा?
आम्
अस्तु। इदानीम् अद्य वयम् उभयतः इति नवमः अभ्यासः कुर्मः। अत्र उभयतः इत्युक्ते आन् बोत् सैड्स्। अत्र मम गृहम् उभयतः सस्यानि सन्ति। अत्र उभयतः इति पदस्य पूर्वं गृहम् अस्ति। एतत् द्वितीयविभक्ति रूपम् अस्ति।
प्रिया,
यः नमस्कारः प्रिया भगिनी।
नमस्ते भगिनि।
अस्तु, चित्रा भगिनी भवती प्रथमं करोतु। अत्र महाचोरः इति अस्ति, तत्र तस्य उभयतः आरक्षकाः सन्ति। वाक्यं कथं वदनीयं?
महाचोरम् उभयतः आरक्षकाः सन्ति।
समीचीनम्। महाचोरम् उभयतः आरक्षकाः सन्ति। उभयतः अस्ति, तस्य पूर्वं महाचोरम् इति द्वितीयविभक्तिरूपम्। समीचीनम्। इदानीं नागेन्द्रमहोदय।
लताम् उभयतः सख्यः अस्ति। सख्यः अस्ति,
सख्यः सन्ति। किमर्थं सन्ति?
देयर आर मेनी ऑफ देम।
सख्यः किमर्थं सख्यः?
सख्यः फ्रेंड्स।
प्रथमाविभक्तिरूपम् एकवचनं किम्?
लख्यः। लता उभयतः सख्यः सन्ति।
लताम् उभयतः सख्यः सन्ति।
लताम् उभयतः सख्यः सन्ति।
समीचीनं
भगिनि। वाट् इस् द मीनिङ्ग् आफ् उभयतः?
उभयतः मीन्स् इत्युक्ते आन् बोत् सैड्स्।
ओ ओके, धन्यवादः भगिनि।
अत्र मम गृहम् उभयतः सस्यानि सन्ति। आन् बोत् sasyani itikte plants on both sides of my house there are plants.
Oh, okay, okay. Dhanyavadaha bhagini.
Idanim Nina bhagini.
Adhyapakam ubhayatah chhatraah santi.
Samichinam. Adhyapakam ubhayatah chhatraah santi. Ekavachane kim?
Adhyapakam ubhayatah chhatraah asti.
तत् समीचीनं भवति वा
न उभयतः अपि
एकवचने न कर्तुं शक्नुमः
शक्नोमि
अस्तु इदानीं वृन्दा भगिनी
वस्त्रापणम् उभयतः धान्यापणाः सन्ति
वस्त्रापणम् उभयतः धान्यापणाः सन्ति
समीचीनं
ग्रीन् स्टोर्स्
वस्त्रापणः
आपणम् इस् स्टोर् वस्त्रम् इस् क्लोत् सो वस्त्रापणम् सो धान्या इस् ग्रीन् एण्ड् आपणम् इस् स्टोर् सो धान्यापणः धान्यापणाः
स्वद्वारम् उभयतः वृक्षाः सन्ति
द्वारम्
उभयतः वृक्षाः सन्ति
समीचीनम् वृक्षाः कुत्र सन्ति
वृक्षः बिकास् इट् द्वारम् उभयतः वृक्षः सन्ति वृक्षः अस्ति
वृक्षाः सन्ति
वृक्षाः सन्ति ओके यु केनाट् से वृक्षः रैट् वृक्षः अस्ति नो ओके
उभयतः मीन्स् बोत् सैड्स्
ओके
सो अट् लीस्ट् टु ट्रीस्
ओके
अस्तु इदानीं प्रिया भगिनि
हा भगिनि भवनम् उभयतः आपणाः सन्ति
समीचीनं भवनमस्ति आपणाः सन्ति भवनम् उभयतः आपणाः सन्ति समीचीनम् इदानीं चित्रा भगिनि
उत्पीठिकाम् उभयतः आसन्दाः सन्ति
समीचीनम् उत्पीठिकाम् उभयतः
आसन्दाः सन्ति
उत्पीठिका अस्ति आसन्दाः सन्ति उत्पीठिकाम् उभयतः
आसन्दाः सन्ति
आसन्दाः कुत्र सन्ति
उत्पीठिकाम् उभयतः
आसन्दाः उत्पीठिकाम् उभयतः सन्ति इदानीं नागेन्द्रमहोदय
देवम् उभयतः भक्ताः सन्ति
समीचीनं देवम् उभयतः भक्ताः सन्ति इदानीं मीना भगिनी लक्ष्मीम् उभयतः गजाः सन्ति समीचीनम् इदानीं वृन्दा भगिनि
वृद्धम् उभयतः कर्मकराः सन्ति
समीचीनं कर्मकराः सन्ति इदानीं अत्र रामः फलं खादति तत्र रामः उभयतः इति पदस्य प्रश्नाः विषये प्रश्नाः सन्ति वा
न
अस्तु अग्रे गच्छामः. रामः फलं खादति, तत्र फलं कर्मपदम्. एतस्मिन् वाक्ये एकं कर्मपदम् अस्ति. साधारणतया एकं कर्मपदम्, एकं क्रियापदम्, एकं कर्तृपदम् अस्ति. इदानीं रामः अध्यापकं प्रश्नं पृच्छति. एतस्मिन् वाक्ये अध्यापकम् इति, प्रश्नम् इति च कर्मपदम्. एवम् अत्र कर्मपदद्वयम् अस्ति. अध्यापकम् इति एकं कर्मपदं, प्रश्नम् इति एकं कर्मपदं. कर्मपदद्वयम् अस्ति, अतः एतत् द्विकर्मकं वाक्यम् इति वदामः. अत्र रामः फलं खादति, तत्र एकं कर्मपदमेव अस्ति. अत्र रामः अध्यापकं प्रश्नं पृच्छति, तत्र अध्यापकं प्रश्नं च कर्मपदानि सन्ति. So, in the first sentence, Rama eats a fruit. There is only one object, the fruit. But in the second sentence, Rama asks the teacher a question. There is two. Whom does he ask? What does he ask? So there are two objects. Whom he asks and what he asks.
Okay.
So this is a dvikarmakam vakyam.
Okay.
So prichati is a dvikarmaka kriyapadam. It has two karma padams. You can put two karma padams. So you can also say Ramaha prashnam prichati, Ramaha adhyapakam prichati, but you can also have two karma padams, Ramaha adhyapakam prashnam prichati. So whom and what? So there are...
Bhagini?
Yes, Mahodaya?
So for in this one, I'm trying to recollect my word. So Ramaha kim prichati? Ramaha prashnam prachati.
Yes, Mahodaya, satya.
And what is the word for adhyapaka? Ramaha?
Ramaha kam prachati.
Kam.
Kam or kam?
Kam.
In strilingam.
Ah, okay. Kam and kam.
In pulingam, it's kam.
Okay.
Kaha becomes kam.
Okay.
In dvitiyaya bhakti. So some verbs can have two karma padams, like vadati. We'll see some udaharanani pashyamaha. Atra karma karaha dhanikaha vastustitihi vadati. So atra कर्मकारः सो कर्मकारः धनिकं वस्तुस्थितिं वदति. सो अत्र वदति धनिकं वस्तुस्थितिं वदति. अत्र एतत् द्विकर्मकं वाक्यम्. अतः धनिकम् इति एकं कर्मपदं, वस्तुस्थितिम् इति एकं क्रियापदम्.
अस्तु,
इदानीम् अभ्यासं कुर्मः. वृन्दा भगिनी, भवती प्रथमवाक्यं करोति वा?
पान्तः आपणिकं मार्गं पृच्छति.
समीचीनम्. अत्र पान्तः इत्युक्ते ट्रावलर्. अत्र पान्तः कं पृच्छति?
पान्तः मार्गं पृच्छति.
आपणिकं पृच्छति
कम् इत्युक्ते हूम् किम् इत्युक्ते वाट् पान्तः आपणिकं किं पृच्छति
मार्गं पृच्छति
समीचीनं पान्तः आपणिकं मार्गं पृच्छति
भगिनी एकं प्रश्नं
एकः प्रश्नः
पान्तः आपणिकस्य मार्गं पृच्छति
आपणिकं मार्गं पृच्छति
पान्तः आपणिकस्य मार्गं पृच्छति इति न वदामः
न वदामः समीचीनं नास्ति नो देट् वुड् पान्तः आपणिकस्य मार्गं पृच्छति इत्युक्ते द ट्रावलर् आस्क्स् द वे आफ़् द शाप् कीपर्
ओके
okay okay yeah
I was thinking shops way so it's aapanika I got aapanam aapanasya margam pruchati but not okay
devalayasya margam pruchati is different than aapanikasya margam aapanikam margam pruchati
okay got it
So here you're saying who he's asking
Correct.
And what he's asking. You can also have Pantaha Apanikam Devalayam Devalayasya Margam Prichati.
We can also say Apanasya Margam Prichati.
Yeah, we can say Apanasya, okay. but not this Apanika. Is actually shopkeeper. I got a little confused. I thought it was saying shop.
So Pantaha So who is asking? He's asking the shopkeeper and he's asking the, what is he asking the shopkeeper? He's asked the way. He's asking the shopkeeper the way. So, Pantaha Apanikam Margam Prichati. Maybe it is about the way to the temple or then Pantaha Apanikam Devalayasya Margam Prichati.
भिक्षुकः गृहिणीम् अन्नं प्रार्थयति
समीचीनम् प्रार्थयति इत्युक्ते प्रेयस् कां प्रार्थयते गृहिणीं किं प्रार्थयते
अन्नं प्रार्थयति
भिक्षुकः कां किं प्रार्थयते
भिक्षुकः गृहिणीम् अन्नं प्रार्थयति
समीचीनम् इदानीं प्रिया भगिनी
कर्मकरः सम्मार्जनीं प्रकोष्ठं नयति कर्मकरः सम्मार्जनीं प्रकोष्ठं नयति
समीचीनम् कर्मकरः किं कुत्र नयति
किं नयति
कुत्र नयति
किं कुत्र नयति प्रकोष्ठं नयति कुत्र नयति प्रकोष्ठं नयति किं नयति सम्मार्जनीं
कर्मकरः किं नयति सम्मार्जनीं नयति कुत्र नयति प्रकोष्ठं नयति
सम्मार्जनी इत्युक्ते
ब्रूम्
ब्रूम् ओके
अस्तु इदानीं नागेन्द्रमहोदय
बालिका विद्यालय
न
श्रूयते महोदय
बालिका विद्यालयं लेखनीं नयति
बालिका विद्यालयं लेखनीं नयति किं नयति कुत्र नयति इति किञ्चित् वदतु महोदय
किं नयति लेखनीं नयति कुत्र नयति विद्यालयं नयति
हा समीचीनं
Can I try, Bhagini?
Oh, I'm Sheila, Bhagini. I'm not a Drishtavati.
Pita,
Namaskara, Bhagini.
Acharyaha Chhatram Gitaam Bodhayati.
Chhatran Gitaam Bodhayati. Atra, Khan Bodhayati.
छात्रान्
छात्रान् आचार्यः छात्रान् बोधयति किम् आचार्यः छात्रान् किं बोधयति
गीतां बोधयति
पुनः वाक्यं वदतु पूर्णवाक्यं वदतु
आचार्यः छात्रान् गीतां बोधयति
समीचीनम् इदानीं वृन्दा भगिनि
भगिनि सोरि ऐ डिडन्ट् गेट् अ चान्स्
ओके नीना भगिनि
पितामही पौत्रान् कथाः कथयति
समीचीनं कथाः कथयति इदानीम् अत्र पितामहः कान्
पितामही
कान् कथयति
पितामही पौत्रान् कथयति
समीचीनं किं कथयति
पितामही कथाः कथयति
विभक्ति का कथाः
स्त्रीलिङ्ग बहुवचन द्वितीया विभक्ति
समीचीनम् कथाः कथयति कर्मपदम् अस्ति इदानीं चित्रा भगिनी
प्रजाः महाराजान् क्लेशाः निवेदयन्ति महाराजं क्लेशाः
क्लेशान्
ओके दिस् इस् pulling is it okay then it's kleshan kleshan nivedayanti maharaja kleshan nivedayanti
samichina kam vede kam nivedayanti
maharajam
kim nivedayanti
kleshaah nivedayanti
क्लेशान्
क्लेशान् निवेदयन्ति महाराज प्रजाः महाराजं क्लेशान् निवेदयन्ति
समीचीनम् इदानीं प्रिया भगिनि
उपराधि आरक्षकराधि ओ सारि अपराधि आरक्षकं क्षमां I don't know the meaning of that. Bhagini, Shamam Prarthayate.
Begs for forgiveness.
Shamam Prarthayate. Okay. Aparadi Arakshakam Shamam Prarthayate. Prarthayate. Sorry. Prarthayate.
Kam Prarthayate.
Aparaksham Prarthayate.
आरक्षकं प्रार्थयते
आरक्षकं प्रार्थयते.
अपराधी आरक्षकं प्रार्थयते. किं प्रार्थयते?
क्षमां प्रार्थयते.
क्षमाम्. इदानीं पूर्णवाक्यं वदतु.
अपराधी आरक्षकं क्षमां प्रार्थयते.
समीचीनम्. इदानीं
भगिनी केन् डू द नम्बर् 5 वन् मोर् टैम् भगिनी. आचार्यः
आचार्यः छात्रान् गीतां बोधयति.
आचार्यः छात्रान्
बहुवचनम्.
Why is it छात्रान् भगिनि? Because it's masculine?
Yes. छात्रः छात्राः.
How can I know it's not feminine chatras?
It could be that too.
So if that is the case, then it will become chatra.
Yes. So you can say Acharyah chatrah gitam bodhayati or chatran gitam bodhayati.
Okay.
Yes.
Thank you.
Okay.
Next is number 9, adhyapakah, same again one more time, chatraha,
or chatraha, chatran,
both, or chatraha, prashnam, prachati,
prashnan, prachati,
prashnan,
kim,
okay,
adhyapakah, khan prachati,
काम पृच्छति. काम छात्राः छात्राः पृच्छति.
न कान पृच्छति.
कान
अत्र पुल्लिङ्गे वदतु. न श्रूयते महोदय.
अध्यापकः छात्रान् प्रश्नान् पृच्छति. प्रश्नान्
अध्यापकः छात्रान् किं कान् पृच्छति.
अध्यापकः छात्रान् प्रश्नान् पृच्छति.
प्रश्नान् पृच्छति. इदानीं चित्र भगिनी अत्र सः वयम् इति अस्ति. वयं तस्य द्वितीयभक्तिं न पठितवन्तः. तस्य द्वितीयभक्तिरूपम् अस्मान्.
सः अस्मान् मन्त्रान् उपदिशति.
समीचीनम्. उपदिशति इत्युक्ते पाठयति.
Bhagini, the prarthayate form, that's new for us, correct?
Atra kriyapadam tasya rupadvayam asti parasmaipadi atmanepadi iti. Vayam prichyati nayati etat parasmaipadi. आत्मनेपदि प्रार्थयते एतत् अन्यत् रूपम्. इदानीं चिन्ता मास्तु. प्रश्नेपदि एव वयं कुर्मः. तस्य रूपमेव वयं कुर्मः. एकनिमिषः. एकनिमिषः अहं शेर् करोमि. दृश्यते वा? अस्तु अत्र विभक्तिवल्लरी तत्र अभ्यासः एव अस्ति. वयम् अभ्यासं किञ्चित् कृत्वा वयम् एतत् अभ्यासं कुर्मः. अस्तु नागेन्द्रमहोदय, भवान् एषः तस्य द्वितीयभक्ति एकवचनं, द्वितीयभक्ति बहुवचनं वदति वा?
एषः प्रथम एकवचनम्, एतं द्वितीय एकवचनं, द्वितीय बहुवचनं एतान्.
समीचीनम्. इदानीं नीना भगिनी, भवती सः इति पदस्य
ततः तं तान्.
समीचीनम्. इदानीं बृन्दा भगिनी, कः इति पदस्य
कः, कं, कान्.
समीचीनम्. लक्ष्मी भगिनी,
एषा, एताम्, एताः, एताः, एताः,
एताः. समीचीनम्.
एताः.
चित्रा भगिनी,
सा, तां, ताः.
समीचीनम्. प्रिया भगिनी,
का, कां, काः.
समीचीनम्. शीला भगिनी,
एतत्, एतत्, एतानि.
समीचीनम्. नागेन्द्रमहोदय,
तत्, तत्, तानि.
समीचीनम्. मीना भगिनी,
किं, किं, कानि.
समीचीनम्. बृन्दा भगिनी,
भवान्, भवन्तं, भवतः.
समीचीनम्. लक्ष्मी भगिनी,
भवते, भवतीं, भवत्याः.
समीचीनम्. चित्रा भगिनी,
अहं, माम्, अस्मान्.
समीचीनम्.
भगिनी, उपरि सर्वनामपदा, सर्वनामपदानां द्वितीया विभक्तिरूपाणि.
एतत् सर्वनामपदा, सर्वनामपदानां द्वितीयभक्तिरूपाणि. अस्तु, शीला भगिनी, भवती एषः एतम् इति पदम् उपयुज्य एकं सुलभं वाक्यमेव वदतु.
एतं पाठं करोमि. अहं एतं, इट्स् विथ् टु, रैट्? एतं
पश्यामि,
एतं पश्यामि,
एतं
पश्यामि, एतान्,
एतान् पश्यन्ति,
पश्यामि,
पश्यामि,
अहम् एतं पश्यामि, अहम् एतान् पश्यामि. एषः बालकः, अहम् एतं बालकं पश्यामि. समीचीनं वा? अवगच्छति वा भगिनि? शीला भगिनि,
आं भगिनि.
अस्तु,
केन से एतं पुष्पे जिघ्रति?
न,
because pushpe is also dvitiya vibhakti, pushpam, pushpe, pushpani, so pushpe.
No,
aur etam pushpani jigranti.
No, see, etam, etam here has to become the karma padam. Etam has to become the object.
Yes. Hmm. Oh, okay. It's not
Dvivachanam.
Okay, it's fair enough.
Pushpe is Dvivachanam. We want Dvitiya Vibhakti. Vibhakti is different from Vachanam.
Okay.
Yeah, sure. That is where I got confused.
Mm-hmm. So we want Dvitiya Vibhakti, Karma Padam, Ekavachanam and Bahuvachanam. No Dvivachanam.
Okay.
Idaniam Nagendra Mahodaya. Saha Tam api tan upayujya vakyam vadatu.
Ramah tam vadati.
Ramah tam vadati. Idanim tam
Sita tan pashyati.
Tan pashyati. Samichinam. Nanim Nina Bhagini Kaha Tatra Kam Khan Upayuchya Vakyam Vartu.
Adhyapakaha Kam Bodhayati. Adhyapakaha Khan Bodhayati.
Samichinam. Brinda Bhagini.
Sita etam pustakam patati.
Samichinam Bhagini. Anantaram etaha.
Sita etaha. Prashnam Uchati.
Ekanimsham Bhagini. Bhavati etam iti upayojya kim vakyam uktavati.
Sita etam pustakam pathati.
Atra etam strilingam asti, pustakam napumsakalingam asti. Etat stilingam vadati chet, stilingam padam api stilingam.
Padam.
Api stilingam. Utpitika. Lata.
Shatika.
Lata.
Sita etam shatikam pashyanti. Pashyati.
Pashyati. Samichinam. Idanim samichinam. Idanim etaha upayuchye ekam vakyam karoto.
Sita etaha utpetikaha pashyati.
Nayati. Samichinam.
Brinda Bhagini, like, what is your sentence in English? What are you actually trying to say?
She sees that chair. Sita sees that chair.
Asandaha is chair. Utpitika is?
A box.
Table.
Yeah.
Desk or table.
So here... go ahead.
Sita sees the table.
So, Kadambri Bhagini, how does that fit here? Etam asandaha or etaha asandaha.
Utpitika, so etam utpitikam pashyati. Sita etam utpitikam pashyati.
Is that she sees that chair or yes. That table? Okay.
Yes. Mm-hmm. No, it is not that, it is this chair. She sees
this one. Yeah, okay.
Bhagini, can we say eta sita etaha lataha pashyati? Can I say
samichinam
that?
Samichinam. Atar lataha iti द्वितीया विभक्ति बहुवचनम् समीचीनमेव भगिनि.
भगिनि, I had a question. Why do we have to use strilinga shabda like utpetika or asanda, whatever? I mean
whatever word you use, bagini, the whatever you say, etam, kam, etam, whatever you use, it has to be in that lingam and vachanam.
So it is for the strilingam, that's why you are using etam and etaha.
No. How you say saha purushaha saha mahila, you can say saha mahila or saha pustakam, you can say.
Oh, okay.
So same way here also, dvitiya bhakti, that's all.
Bhagini, esha is masculine, esha is feminine.
Yes.
That's why everything will change accordingly.
Yes.
So I think if we are referring to a particular object, that the sarvanama pada, the pronoun of that object has to match the object's gender.
Gender, correct.
Yes. Yeah. The padam's gender, padasya lingam.
The noun.
Sa utpitika, tam utpitikam.
So that for that pustakam we had to use etat.
Yes.
Correct.
Asa. Idanim chitra bhagini.
Sita tam kartarim dadati.
Samichina.
Sita
kartarim dadati.
Taha kartarim dadati.
पुनः वदतु भगिनि.
सीता ताः कर्तरीं ददाति. कर्तव्यः
एकवचने वदतु भगिनि.
ताः कर्तरीं ददाति
एकवचने वदतु.
सीता तां कर्तरीं ददाति.
समीचीनम्. इदानीं बहुवचने.
ताः कर्तर्याः ददाति.
कर्तर्यः
कर्तर्यः ददाति. कर्तरी अण्ड् कर्तर्यः.
बट् द्वितीय बहुवचनं विल् बि
कर्तरीः न स्त्रीलिङ्ग ईकारान्त स्त्रीलिङ्ग
कर्तरीः
इदानीं प्रिया भगिनि.
काम सीता काम पृच्छति. हू डिड शी आस्क.
काम पृच्छति समीचीनम्.
काः सीता काः पृच्छन्ति.
सीता काः पृच्छति.
पृच्छति. ओके, दट् विल् नाट् चेञ्ज् इन् टु बहुवचनं भगिनि. पृच्छन्ति.
नो, बिकास् सीता इस् स्टिल् सिङ्गुलर्.
ओ ओके 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 ओके
अस्तु. इदानीं नागेन्द्र महोदय.
शीला
भगिनि.
एतत् पुस्तकम् अस्ति.
एतत् पुस्तकम् अस्ति. एतानि
एतानि पुस्तकानि सन्ति.
समीचीनम्.
सः तत् फलं खादति. एण्ड् देन् ते तानि फलानि खादन्ति.
समीचीनम्. इदानीं नीना भगिनी
रामः किं पुस्तकं रामः इस् इट् बेटर् नौ ओके रामः किं पुस्तकं पठति रामः कानि पुस्तकानि पठति
समीचीनम् इदानीं बृन्दा भगिनी
भवन्तः कुत्र गच्छति भवन्तं देवालयं गच्छति
पुनः वदतु
भवन्तं देवालयं गच्छति
न अत्र देवालयम् इति कर्मपदम् अस्ति अत्र भवन्तम् इति कर्मपदं वक्तव्यम्
भवन्तं
अहं भवन्तं जानामि
अहं भवन्तम् आह्वयामि
आह्वयामि
अहं भवन्तं जानामि
ओके अहं भवन्तं जानामि
वयं भवतः जानीमः
वयं
भवतः
जानीमः
जानीमः
अहं भवन्तं जानामि वयं भवतः
जानीमः
अहं भवतः जानामि इस् आल्सो रैट् भगिनि ऐ नो आल् आफ् यू
ओके अहं भवतः जानामि
अहं भवतीं शाटिकां ददामि अहं भवत्याः जानामि
एकनिमिषः भगिनि एकनिमिषः
It cannot be aham bhavatim shatikam dadami. No. That will be like...
I'm giving you.
Yeah. It will be like...
Like literally I'm, you.
Okay. So
I'm giving you. Not to you, but I'm giving you.
Yeah.
I'm giving you.
Bhavatim nityam karomi.
I think a noun has to come first and this is the
yeah
then you get the karma pratham
bhavati
aham bhavati pashyami aham bhavati janami
aham bhavati taadyami
yeah aham bhavati bodhayami prachami
aham bhavati prachami aham bhavatyah janami जानीमः
देट् इस् ऐ थिङ्क् ऐ मेड् अ मिस्टेक् हियर् वन् मिनिट् दिस् इस् सपोस् टु बि भवतीः सो यूस् भवतीः भगिनी
अहं भवतीः जानामि
अहं भवतीः जानामि इदानीं प्रिया भगिनी अहं माम् उपयुज्य
मां कुक्कुरः पालयति ऐ मै माम् इस् मै
अहम्
oh okay mom is me right
you could aham. say aham mam kukurah palayam
no aham. even that is wrong
even that's wrong okay
aham
aham mam graham gachhami
Huh. That, why that is that wrong, Bangri? My, oh, that becomes my.
Yes.
Maam graham gachami will be wrong?
Yes. Use me, not my.
Okay. Saha, pustakam maam dadati?
No.
He gave Abhava, me.
No, bhavati maam janate.
Saha maam pashyati.
सः मां पश्यति
सः मां पश्यति
सः माम् आह्वयति
सः मां पश्यति He looked at me. That is सः मां पश्यति ओके
इदानीम् अस्मान् माम् इस् आब्जेक्ट्
ओके अस्मान् मां गृहं जानाति
अस्मान् इस् अगेन् बहुवचनम् इट् इस् स्टिल् दि आब्जेक्ट्
Right. Saha Asman Ahvayati. Means he
invited us.
He invited us. Okay.
Bhagini, in the previous sentence, we could have said, Aham Bhavati Hi Shatikah Dadami. That means I'm giving your sari away. Or something like that?
No. No, Bhavati is not Shakshti.
Oh, okay. Yeah, okay.
We'll see later.
Yeah.
We'll see different Vibhaktis. We'll need different Vibhakti. We'll see it later.
Yeah.
Okay. Asman Upayatya Vakyam Karotu Bhagini.
Saha Asman Dadati, he gave me. Can we say that?
Us.
He gave us.
Ashyati or Ahvayati?
Okay. Saha Asman Ahvayati?
Astu. Asman Smarati, like something like that. He remembered us.
Okay.
So, but can we not make it dvikarmakam vakyam? Saha asman pushpam dadati?
No.
Oh. Pushpani. Okay.
So, Bhagini, in this case, then it becomes mom, asman. These will become the object, not the subject.
Yes, Bhagini.
Okay.
It is not I, but it will be me or us.
Yeah.
Okay. Saha. Oh, yeah. Asman cannot be used because it has to symbolize the pushpam. Okay. Oh, my God. This is so confusing.
It is confusing.
Yeah. Like an object, not like a...
Just remember it's an object and make a sentence where it's the object and it will be easy.
Yeah.
Remember to give homework on this. I think we'd like to do more of that.
Yeah. No, what I'm saying is, in spite of knowing it, by the time you actually form the sentence, you forget about it. Yeah.
Astu. Tanim abhyasam kurmaha. Chitra bhagni bhavati prathamam vakyam karoti va?
What is it I'm supposed to do?
I didn't explain, right? Okay. Water is in the parentheses. You put it in Dutiyaya Bhakti. And then it will always say Bahuvachanam or Ekavachanam. So you'll have to, if it's in Bahuvachanam, put it in Ekavachanam. If it's in Ekavachanam, put it in
Bahuvachanam. Saha Balakaha Tau Janati
Tam
बालकः तं जानाति एण्ड् बालकः एषः ऐ एम् नाट् शुर् वाट् इस् एषम् एतम् एतं जानाति एतं न जानाति
फोर् ईच् सेण्टेन्स्
So there will be one.
Okay.
There will be some in Ekavachanam that you'll have to do in Ekavachanam. But somewhere in, right now, there you have to put it in Bahuvachanam.
Okay.
So, Tam, what is the Bahuvachanam for it?
We need to see the paper.
Tam.
Okay. Can I show Tam. Both of them so you can...
Yeah, that will be easier. Yes,
okay,
easier.
I'll just stop sharing so I can...
So, Tam.
Up.
Tam.
Ekanam Shabagini. Astu. एकनिमिषः
सो बालकः तं जानाति बालकः तान् न जानाति
न भगिनि अत्र भवति बालकः तं जानाति एतं न जानाति इति
उक्तवती
इदानीं सः अपि एषः तस्य द्वितीयविभक्ति बहुवचनरूपं वदतु अनन्तरं वाक्यं वदतु एतत् तानि उपयुज्य
सो बालकः तं जानाति तान् न जानाति
No.
No.
Look.
No.
Okay. Saha, what is its Dvitiya Vibhakti Rupam?
Tam.
Tam.
Yeah.
Now, what is the Bahuvachanam for that?
Tan.
Tan. So now, what is the Ekavachana Dvitiya Vibhakti Rupam for Eshaha?
Etam.
There you go.
Etam. Etan.
Yeah.
Bahuvachana is Etan. Okay.
Now see the sentence using tan and etan.
Balakah tan janati, etan na janati.
Etan na janati. Samichina. Asta. Itanim. Nagendra Mahodaya.
Balakah etam janati. Etan na janati. तान् न जानाति बालकः एतान् जानाति तान् न जानाति I'll repeat it बालकः एतां जानाति and then तान् sorry तां न जानाति And then Bahuvachanam, Balakaha.
Na janate, samichinam. Idani Bahuvachane.
Balakaha, etan janati. Bahuvachanam.
Etaha.
Etaha. Okay. We have to be more careful. सो बालकः एताः जानाति ताः न जानाति
समीचीनम् इदानीं नीना भगिनी
या बालिका भवन्तं जानाति मां न जानामि बहुवचने
मां न जानाति
न जानाति सोरि न जानाति बालिका भवतः जानाति अस्मान् न जानाति
भवतः
जानाति अस्मान् न जानाति
अस्मान् न जानाति समीचीनम् इदानीं बृन्दा भगिनी
चित्रकारः भवतीं जानाति तानि न जानाति
अत्र तत् इति अस्ति, तस्य द्वितीयभक्तिरूपं किं?
तत् तत् सोरि सो चित्रकारः भवतीं जानाति, तत् न जानाति.
भवतीं जानाति, तत् न
जानाति.
बहुवचने
चित्रकारः भवतीः जानाति, तानि न जानाति.
भवतीः
जानाति, तानि न जानाति.
तानि न जानाति. समीचीनम्. इदानीं लक्ष्मी भगिनी.
रमेशः ते रैट् सो देट् वुड् बि ताने रमेशः तान् जानाति, रमे ताः न जानाति.
हा समीचीनम्. इदानीम् एकवचनम्.
रमेशः ते वुड् बि can you pull it up a little bit?
Oh, sorry, Bhagini.
Okay. Tam, Rameshah, tam janati. Tah na janati. Tam janati. Tan na janati. Ta would be...
समीचीनम्.
दिस् होल् एक्ससैज् ऐ एम् नाट् एबल् टु अण्डर्स्टाण्ड्.
सो भगिनि, वी सेङ्ग् वाट् एवर् इस् इन् द पेरेन्थेसिस्, वी सेङ्ग् दट् इन् ओके. सो आल् जस्ट् एक्स्प्लेन् द फिफ्त् सेण्टेन्स् अगेन्. सो सो वाट् वी आर् डूङ्ग् इस् we have Rameshah, we have te in the parentheses. What is te? What is the dvitiya bhakti of te? Tan, right?
The dvitiya of te is tan. Okay,
correct. So we say tan there, and then janate. What is the dvitiya bhakti roopam of taah?
Etam.
No, ताः, नाट् एताः.
ऐ डोण्ट् रिमेम्बर्.
इट् इस् ताः ओन्ली नो भगिनि.
भगिनि, यु हेवन् गिवेन् फार् ते अण्ड् ताः द द्वितीय.
सो वाट् ओके, सो वाट् इस् ते? इट् इस् द बहुवचनम् आफ् सः.
सः, या.
सो इट्स् बहुवचनं वुड् बि तान्.
ओके.
And taha would be taha.
Yeah. Oh, yeah. Okay.
I think if we do the next three, probably we'll get more.
And then also we're doing the ekavachanam also. That is what.
Yeah, yeah, that is what we're going to do now.
Yeah.
Okay. So, Sheila Bhagni, do you want to do the sixth one?
Do.
एताः. सो वाट् इस् द एकवचनम् आफ् एताः? एषा. सो वाट् इस् द द्वितीयभक्ति बहुवचनम् आफ् एषा?
द्वितीयविभक्ति आफ् एषा इस् एताम्.
एताः.
ऐ थिङ्क् एवरीबडी इस् अ बिट् कन्फ्यूस्ड् हियर्.
यस् यस्.
या, इट् इस् लिटिल् कन्फ्यूजिङ्ग् इस् दे.
ओके, बिकास् ऐ थिङ्क् इट्स् कन्फ्यूजिङ्ग्. ऐ ओन्लि पुट् द प्रथमा एकवचनं. Okay, so we'll go through it one more time, and I'll write the
then it will be easier. Yes.
Yeah.
एषः बिकम्स् एतम् वाट् बिकम्स् एतान्
एषाः नो नो सोरि एते एषः एते
सः becomes tam.
Te becomes tam.
Te becomes tam.
Now kaha. Kaha becomes kam.
Kam.
Ke. Ke.
Ke becomes kan. Esha becomes etam. Etaha. Just stays. So it's just, it stays the same. And then, what becomes tam?
Sa.
Sa becomes tam. And, taha stays the same. Taha. Now, ka becomes kam. And, kaha.
Kaha stays the same.
Now, etat, everything stays the same here, so... Yeah. Wait, I'll just rewrite etani.
Tat and etat, yeah.
Tani equals tani, and then kani equals kani. Now... Bhavan equals Bhavantam.
Bhavatyah?
Bhavatyah?
Bhavan, Bhavantah. Okay.
And then Bhavati.
Bhavantah, okay.
It changes, right? And then
Bhavatyah.
Correct. Bhavatyah becomes Bhavatihi. Aham becomes Mam.
Vayam.
Vayam becomes Asmam.
Vayam becomes Asma. Is it a bit easier now? Or is it still hard?
Still confusing for me.
Well, we've only done some practice, so we'll do more practice. I'll give more homework on this.
Okay.
So we still have, I think, 3 sentences, right? Okay, so we'll just try and see if it's easier to understand. Chitra Bhagini, do you want to try?
Esha Chatra Esha Janati Etaha Janati.
No, so Chatra Etaha
Janati.
And then?
Chatra, etan na janati.
Etan na janati.
Etan na janati.
Okay, so we'll just leave ekavacham for now. We'll just try to just do this. So now bhavantaha.
Bhavan janati. Bhavantaha na janati.
Okay, now... Sheila Bhagini.
छात्रः भवान् जानाति
छात्रः
भवत्यः भवतः भव सः भवती जानाति भवतीः जानाति अस्मान् न जानाति
अस्मान् न जानाति समीचीनं
छात्रः भवतः जानाति तानि न जानाति
समीचीनम्
तानि
स्टेस् द सेम् हियर् भवन्तः चेञ्जस् इन् तृतीया भक्ति भवतः Okay, so I will give homework on this, so we'll try to get more fluent with this. So,
could you also put this sheet up, Bhagini, in the website?
Yes, Bhagini.
Thank you.
Okay, so we'll just... try to do this exercise. So, 1 minute. अस्तु इदानीं गृहपाठं कुर्मः अस्तु नागेन्द्रमहोदय भवान् प्रथमं वाक्यं करोति वा
प्राध्यापकः ग्रन्थालयं गच्छति
ओ एकनिमिषः अस्तु इदानीं पुनः एकवारं वदतु महोदय
प्राध्यापकः ग्रन्थालयं गच्छति
हा प्राध्यापकः ग्रन्थालयं गच्छति बृन्दा भगिनी
धनिकः वित्तकोशं गच्छति
समीचीनं लक्ष्मी भगिनी
बालकः प्रकोष्ठं गच्छति
समीचीनं चित्रा भगिनी
यतिवरः विदेशं गच्छति
यतिवरः मठं गच्छति
मठं गच्छति
प्रिया भगिनी
भिक्षुकः बौद्धविहारं विहारं गच्छति
समीचीनम् इदानीं शीला भगिनी
आचार्यः आश्रमं गच्छति
आश्रमं गच्छति
आश्रमं राइट आश्रमं गच्छति आश्रमं
यस आश्रमः आश्रमं
आचार्यः आश्रमं गच्छति
समीचीनम् इदानीं नागेन्द्रमहोदय
अन्तरिक्षयात्रिकः चन्द्रलोकं गच्छति
समीचीनम् इदानीं बृन्दा भगिनी
सचिवः विदेशं गच्छति
समीचीनं लक्ष्मी भगिनी
शिष्यः मच्छप्रदेशं गच्छति.
समीचीनम्. इदानीं चित्रा भगिनी.
वीरः स्वर्गं गच्छति.
समीचीनम्. इदानीं प्रिया भगिनी.
नारदः भूलोकं गच्छति.
समीचीनम्. इदानीम् एतत् अभ्यासं कुर्मः. एतम् अभ्यासं कुर्मः. शीला भगिनी.
नम्बर् टु. बालिका अध्यापिकाम् आह्वयति.
बालिका अध्यापिकाम् आह्वयति. समीचीनं. नागेन्द्र महोदय.
अग्रजः अनुजाम् आह्वयति. आह्वयति.
आह्वयति. आह्वयति.
आह्वयति.
आह्वयति. आह्वयति.
आह्वयति.
आह्वयति. आह्वयति. आह्वयति. आह्वयति.
आह्वयति.
आह्वयति. समीचीनं. भगिनि.
भगिनि, इस् इट् अनुजायाम् और् अनुजा? अनुजाम्.
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 अनुजायाम् इस् सप्तमी.
इस् इट् जाम् वित् द हलन्त आन् टाप् और् वित् द मा?
It is in. Because afterwards you have Ahvayati.
Oh, okay.
If there is a Swaram, you have to put Makaram. And if it's a Vyanjanam, you put the dot on top. So, Idaniam Lakshmi Bhagini.
अनुजः अग्रजाम् आह्वयति.
समीचीनम्. इदानीं चित्रा भगिनी.
जनकः कन्याम् आह्वयति.
समीचीनम्. इदानीं प्रिया भगिनी.
स्वामिनी सेविकाम् आह्वयति.
समीचीनम्. इदानीं नागेन्द्रमहोदय.
रुग्णः वैद्याम् आह्वयति.
समीचीनं. शीला भगिनी.
वैद्यः रुग्णाम् आह्वयति.
समीचीनम्.
सो फार् आल् आफ् दिस् विल् बि डाट् आन् टाप्.
यस्, बिकास् आफ् आफर्. सारी,
नो, इट्स् नॉट द डाट् आन् टाप्. मकार.
यस्.
Oh, everything with more with the halal.
Halal. Yes.
Yeah. Yeah.
Okay. Idanim Sheila Bhagini. Bhagdeva Itat.
Balakaha Pradarshanim Pashyati.
Pashyati.
Pashyati. Balakaha Pradarshanim Pashyati.
Here all it will be a dot. Because there is a pa and it's a vyanjana. Pashyati. Asto, idanim Brinda Bhagini.
Prekshakaha abhinetrim pashyati.
Samichinam. Lakshmi
Bhagini. What is the meaning of that sentence, Bhagini?
The viewer?
Audience.
Audience.
Oh. The audience see the actress.
Actors.
Okay. धन्यवादः.
नटः नटीं पश्यति.
सन् डान्सर् सीस् द डान्सर्. अस्तु, इदानीं चित्रा भगिनी.
गृहिणी भिक्षुकीं पश्यति.
समीचीनं. नागेन्द्रमहोदय.
याचकः गृहिणीं पश्यति.
गृहिणीं पश्यति. समीचीनम्.
ग्रहिणीं पश्यति
गृहिणी शीला भगिनी
भक्तः देवीं पश्यति
समीचीनं अस्तु अत्र पालकः फलं खादति अस्तु इति उदाहरणमस्ति अनन्तरं बालकः पुस्तकं पठति अस्तु नागेन्द्रमहोदय भवान् तृतीयं करोति वा
तृतीयम्
आम्
बालकः पत्रः पठति बालकः पत्रं लिखति
लिखति समीचीनं पत्रं लिखति कः पत्रं लिखति वृन्दा भगिनी
बालकः दुग्धं पिबति
समीचीनम् लक्ष्मी भगिनी
बालकः दूरदर्शनं पश्यति
समीचीनं चित्रा भगिनी
बालकः पुष्पं जिघ्रति
समीचीनं प्रिया भगिनी
बालकः पुस्तकं नयति
समीचीनं शीला भगिनी
बालकः मोदकं यच्छति
मोदकं यच्छति
मोदकं यच्छति
नागेन्द्रमहोदय
बालकः क्रीडनकम् आनयति
समीचीनं वृन्दा भगिनी
भगिनी वाट् इस् क्रीडनकं
टाय् इस् वाट् ऐ लुक् ऐ सॉ व्हेन् ऐ लुक्ड् अप्
ऐ जस्ट् डोण्ट् रिमेम्बर्
Set plaything or toy?
Toy. Oh, okay. Thank you. Balakaha Geetam Gayati.
Samichina. Atra Granthaheti Asti Grantham Granthan. Asto. Nagetar Mahodhya Bhavan Pratamam Karotu.
Mantraha Mantram Mantram.
समीचीनं वृन्दा भगिनी
श्लोकः श्लोकं श्लोकान्
समीचीनं लक्ष्मी भगिनी
पाठः पाठं पाठान्
समीचीनं चित्रा भगिनी
अध्यायः अध्यायम् अध्यायान्
समीचीनं प्रिया भगिनी
निबन्धः निबन्धं निबन्धान्
समीचीनं शीला भगिनी
अभ्यासान्
समीचीनं नागेन्द्रमहोदय
विषयः विषयं विषयान्
समीचीनं वृन्दा भगिनी
नियमः नियम नियमान्
नियमं नियमान् समीचीनं लक्ष्मी भगिनी
मयूरः मयूरं मयूरान्
समीचीनं चित्रा भगिनी
शुकः शुकं शुकान्
समीचीनं प्रिया भगिनी
कुक्कुरः कुक्कुरं कुक्कुरान्
समीचीनं बिडालः शीला भगिनी
बिडालः बिडालं बिडालान्
समीचीनं नागेन्द्रमहोदय
वृषभः वृषभं वृषभान्
समीचीनं वृन्दा भगिनी
शशः शशं शशान्
समीचीनं
what is the meaning beginning of shasha
does anybody know
rabbit
correct
okay thank you
next meenah lakshmi bhagini
मीनः मीनं मीनान्
समीचीनं
मीनः इस् फिश् रैट्
आं भगिनि अस्तु अत्र स्थगयामः अहं एतः अभ्यासः अहं लेखिष्यामि, उत्तराणि अहं लेखिष्यामि. अस्तु, वयं शान्तिमन्त्रं वदामः. वृन्दा भगिनी.
आं भगिनि. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्तिः शान्तिः शान्तिः. हरि ओम्. श्रीगुरुभ्यो नमः.
हरि ओम्.